एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राज्य व्यवस्था सुशासन समित्या बलात्कारस्य घटनायां मेलनाय भूमिकां महतो जनान् दण्डयितुं सर्वकारः निर्दिष्टो वर्तते। समिते ह्यसिम प्रासादे उपविष्टेन उपवेशेन बलात्कार सदृश्य जघन्य अपराधेपि मेलनं कारयित्वा घटनां गोपायितुं भूमिकां महतो जनान् कठोरेण दण्डयितुं सर्वकाराय निर्देशनं प्रदत्तमस्ति। उपवेश्य गृहमन्त्री रामबहादुर थापा अवदत् बलात्कारस्य घटनानां न्यूनीकरणाय सर्वकारेण अधिकतम प्रयत्न विधीयमानो वर्तते। असौ अगदत् बझाङ जनपदस्य सम्झना कामी इत्यस्या बलात्कारस्य हत्यायाश्चारोपिणं विधेयः परिवेष्टने आनेतुं सर्वकारेण कठोरं कार्यं चालितमस्ति। गृहमन्त्री थापा सामाजिक मनोवृत्तेः राजनीतिकावस्थायाः नेतृत्वस्य दुर्बलतायाः सामाजिक सांस्कृतिक चेतनायाः न्यूनतायाः विधेः पालनाभावस्य च कारणैः बलात्कारस्य घटनाः वर्धमानाः सन्तीति तर्कयन् एवंविधानं घटनानां न्यूनीकरणे सर्वेषां सार्थक प्रयासाय बलम् अददात्। गृहमन्त्री थापा निर्मला पन्त विषयिण्यां घटनायाम् अपराधिनो विधेः परिवेष्टने आनेतुं विलम्बः जायमानो स्थिति स्वीकुर्वन् घटनायाः दोषिणः सर्वकारेण दण्डनस्य परिदो आनेष्यते एवेति प्रतिबद्धतां च विव्यनक। प्रतिनिधि सभायाः सांसदैः बालिका बलात्कार सदृशे जघन्यापराधे संलग्नाय अपराधिने मृत्युदण्डनम् अभियाचितं वर्तते। संसदः महिला सामाजिक समिते ह्यसिम्ब प्रासादे उपविष्टे उपवेशे सांसदाः बझाङ जनपदस्य माष्टा ग्रामपालिकायाः द्वादश वर्षीयायाः बालिकायाः बलात्कारस्य पश्चात् विहितायां हत्यायां पुष्टिभूतायां सत्यमपि दोषी न दण्डिता इति तर्कयन्तः बलात्कारस्य घटनायां संलग्नाय जनाय मृत्युदण्ड प्रदानत्वेन विधिं निर्मातुं बलमददुः। उपवेशे पूर्वमन्त्री सांसदश्च राधा ग्यवाली सांसदाः शान्ता चौधरी पुष्पा भूषालः बिन्दा पाण्डे च विचारान् प्राकटयन्। उपवेशे गृहसचिवः महेश्वर न्यौपाने केवलं श्रावण भाद्र मासयोः बलात्कारस्य 47 घटनाः भूताः इति ज्ञापयन् अकथयत् वर्तमान समये प्रतिदिनं 8 पर्यन्तं बलात्कारस्य घटनाः जायमानाः सन्ति। प्रधानमन्त्री केपी शर्मा ओली भाषते आगामिनः कार्तिक मासस्य 7 दिवसतः विध्यानुसारेण क्लिनफिड नामिका विज्ञापन रहिता प्रसारण सेवा क्रियान्वेष्यते। नवसंघटितस्य मीडिया एलायन्स नेपालस्य अध्यक्षस्य भास्कर राजकर्णिकारस्य नेतृत्वस्य समूहाय ह्यो बालवाटार वर्तिनी प्रधानमन्त्री निवासे वर्धापनम् ज्ञापयन् प्रधानमन्त्री ओली विधेः पालनात् सर्वकारः परामुखो न भवति इति समस्पष्टयत्। संचार सूचना प्रविधि मन्त्रालयस्य कार्यभारवाहकः प्रधानमन्त्री ओली सूचनायाः अधिकार सम्बद्धो विधिः प्रवादस्य चक्रव्यूहस्य सर्जनाय नास्ति इति स्पष्टीकुर्वन् पारस्परिक सहयोगेन अग्रे वर्धितुमपि आह्वयत्। प्रधानमन्त्रिणः संचार परामर्शदातुः सूर्य थापा विधस्य अनुसारेण प्रधानमन्त्रिणा ओलिना सर्वकारेण पत्रकाराणां भौतिक सुरक्षा 100% सुनिश्चीयते, अन्येषु क्षेत्रेष्वपि यथासम्भवं सहयोग सुरक्षा संरक्षणानि विधीयन्ते इत्युक्तमासीत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य उपाध्यक्षस्य वामदेव गौतमस्य राष्ट्रिय सभा सदस्य पदे मनोनयनस्य निर्णयस्य विरूद्धे सर्वोच्च न्यायालये पञ्जीकारितस्य न्यायिक निवेदनस्य श्रवणं श्व शुक्रवासरं यावत् विलोकनस्य क्रमे स्थापितमस्ति। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठस्य पूर्ण न्यायपीठे न्यायिक निवेदकात् विपक्षिणश्च ह्य प्रथमचरणे तर्कोपस्थापने सत्यपि विधि व्यवसायीभिः तर्कोपस्थापन क्रमस्य असमाप्तेः कारणात् श्व शुक्रवासरं यावत् श्रवणं विलोकनस्य क्रमे स्थापितमिति सर्वोच्च न्यायालयस्य प्रवक्ता भद्रकाली पोखरेलः अज्ञापयत्। गतदिने आराष्टम 1569 जनेषु कोरोना संक्रमणं पुष्टिभूतमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमा ह्यो 12,795 जनानां विहितेन रियल टाइम पीसीआर विधेः परीक्षणेन 977 जनेषु पुरूषेषु 580 महिलासु च संक्रमणं पुष्टिभूतमिति अज्ञापयत्। गतदिने काष्ठमण्डप उपत्यकायाम् एव 900 च संक्रान्त जनाः वर्धिताः सन्ति। नेपाले अद्यावधि 777 च जनेषु कोरोना संक्रमणं पुष्टिभूतमिति स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। गतदिने अतिरिक्ताः 1,750 च जनाः संक्रमणात् मुक्ताः सन्ति। ह्य अतिरिक्तानां 7 जनानां मृत्योः पश्चात् अर्थात कोरोना संक्रमणेन नेपाले मृतानाम जनानाम अद्यावधि समग्र संख्या चतुशतम अष्टानवति प्राप्त अस्ति। सम्प्रति आराष्टम विंशति सहस्राणि अष्टशतम एकनवति सक्रिय संक्रांत जनाः वर्तन्ते। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना परीक्षणाय गृहीताधिक शुल्काः अष्टौ प्रयोगशालाः चतुर्विंशतेः घण्टानामभ्यन्तरे शुल्कं समायोजयितुं निर्दिष्टाः सन्ति। मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः गुणस्तर मापन नियमन महाशाखायाः प्रतिवेदनस्य अनुसारेण ह्याम्स चिकित्सालयः डिकोर ल्याब इन्टिपेयर ल्याब सूर्य हेल्थ केयर स्टार बीएण्डबी नेपाल मेडिसिटी चिकित्सालयः चेति नामधेयाभिः प्रयोगशालाभिः कोरोना परीक्षणाय निर्धारितात् अधिकं शुल्कं गृहीतमिति सूचना प्राप्तेः कारणात् चतुर्विंशते घण्टानामभ्यन्तरे निर्धारिते शुल्के समायोजिते असति परीक्षण स्वीकृतिं निरस्तीकर्तुं निर्णीतं वर्तते इति अज्ञापयत्। स्वास्थ्य मन्त्रालयेन षष्ठीतः अधिकवयस्काः वृद्धवृद्धाः मधुमेहार्बुदोपचाराणां रोगिणाश्च गृहात् बहिः न निष्कान्तुं विशेष सावधानताम् अवलम्बितुं च अनुरुद्धाः सन्ति। उपप्रधानमन्त्री ईश्वर पोखरेलः नेपालस्य यूएई नाम्ना संयुक्त अरब इमिरेट्स देशस्य च मध्ये विद्यमानो घनिष्ठ मैत्रीपूर्णस्य सम्बन्ध आगामी दिनेषु इतोऽपि विस्तीर्णः गभीरश्च भविष्यति इति विश्वासं व्यनक्ति। नेपालस्य कृते यूएई देशस्य राजदूतेन साइद अमदन अल नाकवी इत्यनेन सह ह्यः सिम्मा प्रासादे सम्पन्ने शिष्टाचार मेलने असौ यूएई देशे बहवो नेपाली श्रमिकाः सन्तीति भाषमाणः कोरोना महामार्याः अवधौ नेपाली श्रमिकान् प्रति यूएई देशेन प्रदर्शितां सद्भावनां प्राशंसत। तदवसरे राजदूतः नाकवी यूएई देशस्य नेपालस्य च मध्ये विमानोड्डयनं शीघ्रं नियमितं भविष्यति इति ज्ञापयन् अवोचत् महामार्याः प्रतिकरणाय देशद्वयस्य मध्ये पारस्परिक सहयोगस्य आवश्यकता वर्तते। सल्यानवर्तिनी सल्यान चिकित्सालये कार्यरते एकस्मिन् स्वास्थ्यकर्मिणी कोरोना संक्रमणस्य पुष्टि अनन्तरं ह्यस्तन दिवसात् बहिरंग सेवा पिता पिताः सन्ति इति समाचारः।